गणेशाय नमः। ॐ वागर्ताविव सम्प्रक्तौ वागर्तप्रतिपत्तये जगदः पितरौ वन्दे पार्वतीपरमेश्वरौ। ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलम् अचलं सर्वदी साक्षीभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि। ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
सुन्दरं भगिनि, धन्यवादः।
धन्यवादः भगिनि।
सुन्दरं सुन्दरम्। अन्तिमप्रार्थना कुतः आयाति
इति एक गुरुवन्दनश्लोकम् अस्ति भगिनि, बिना भगिनी प्रेषितवती
अहं प्राप्तवती
तत्र अस्ति भगिनि।
अस्तु अस्तु, उत्तमं, धन्यवादः भगिनि।
धन्यवादः।
अस्तु, अद्य पुटसङ्ख्या 150 इति वा अभ्यास 150
150 आं भगिनि।
150 हा, अस्तु, पठतु भगिनि।
आम्, सः पुत्रेण सह आपणं गच्छति।
पुत्र भगिनि, एकपञ्चाशत्।
ओ, एकपञ्चाशत्, ओके, चित्राणां सहायेन रिक्तस्थलानि पूरयन्तु। यथा हस्तः, सः हस्तेन कार्यं करोति।
हस्तेन कार्यं
करोति।
हस्तेन कार्यं करोति इत्युक्ते
हाथ के द्वारा कार्यं करता है।
कोई भी करता है, करती है। हस्तेन, एकमेव
एकमेव, हस्तेन कार्यं
हस्तः, सः एकेन हस्तेन कार्यं
करोति।
अस्तु, हस्तौ अस्ति चेत्
सः हस्ताभ्यां कार्यं करोति।
सः हस्ताभ्यां कार्यं करोति। संख्या संख्या पदमपि भवति चेत् वाक्यं वदतु।
सः द्वौ हस्ताभ्यां कार्यं करोति।
द्वाभ्यां
हस्ताभ्यां कार्यं करोति।
द्वाभ्यां हस्ताभ्यां कार्यं करोति। किमर्थं द्वाभ्यां तत्र
विशेषणमस्ति?
विशेषणम् आवश्यकं तु नास्ति। किमर्थं हस्ताभ्यां तु द्विवचनम् अस्ति एव, किन्तु अभ्यासेन द्वाभ्यां हस्ताभ्यां कार्यं करोति। शैलजा भगिनी, स्वागतं। भगिनी
नमस्कारः भगिनि, क्षम्यतां।
न, चिन्ता मास्तु, चिन्ता मास्तु। 150 तमे पुटे पश्यतु भगिनी।
आम्
अवगतं भगिनि? सुधा भगिनि अग्रिमं करोतु.
आं भगिनि. स्वीनयन्त्रं सीवनयन्त्रं. सा सीवनयन्त्रेण वस्त्रं सीव्यति.
सीवनयन्त्रं कीदृशपदं? सीवनयन्त्रं
नपुंसकलिङ्गपदमस्ति.
नपुंसकलिङ्गं यन्त्रं यन्त्रं सीवनयन्त्रम् इति. सीवनयन्त्रेण वस्त्रं सीव्यति. अस्तु, बहुवचनमस्ति चेत्?
सा सीवन बहुवचनम् अस्ति चेत् सीवन यन्त्रैः वस्त्रं सीव्यति.
वस्त्रं सीव्यति. अपि च सर्वं बहुवचनम् अस्ति चेत्?
सा सीवनयन्त्रैः वस्त्राणि सीव्यति.
सर्वम् अस्ति चेत् ताः ताः
ताः सीवनयन्त्रैः वस्त्राणि सीव्यन्ति.
सीव्यन्ति, उत्तमं, तदेव.
नमस्कारः भगिनि.
दीक्षिका भगिनी, स्वागतं. श्रूयते वा अधुना?
श्रूयते वा?
अस्तु, लोकयानं पठतु दीक्षिका भगिनी.
लोकयानं नपुंसकलिङ्गपदं. जनाः लोकयानेन प्रयाणं कुर्वन्ति.
इत्युक्ते
लोग बस में घूमने जा रहे हैं.
प्रयाणं कीदृशपदं तत्र?
प्रयाणं नपुंसकलिङ्गपदम्.
उत्तमं, नपुंसकलिङ्गं
पदं.
नपुंसकलिङ्गं धातु जानाति वा दीक्षिका भगिनी? कोऽपि जानाति वा धातु? पापजी प्रणामः. या याति, तदेव. या याति, उत्तमं. या इत्युक्ते किं पापजी? या इत्युक्ते पश्यतु एकवारं दीक्षिका भगिनी, अष्टाध्यायी मध्ये पश्यतु.
या याति धातु. एकनिमिषः.
पदादिगणे
या यत् युत् युङ् युच् यौट् येष्
न भगिनि, अष्टाध्यायी डाट् काम् मध्ये पश्यतु. या धातुपाठमध्ये प्रेषयतु. या दीर्घ या प्रापणे इति दत्तम्. अदादिगणे परस्मैपदी सकर्मक धातु.
कहाँ पढ़ना है?
अष्टाध्यायी डाट् काम् मध्ये पश्यतु भगिनि.
लैपटॉप में?
आम आम भगिनि.
हाँ, तो उसी में हमने वाई ए टाइप किया. वाई डबल ए टाइप करना है.
या दीर्घ आ अस्ति ना.
अच्छा, दीर्घ अस्ति. ओके ओके. हाँ. या प्रापणे अदादि ही परस्मैपदी सकर्मक.
उत्तम, तदेव. प्रापणे. हाँ. या प्रापणे.
प्रापणे इत्युक्ते?
कोऽपि जानाति वा पापजी प्रापणे इत्युक्ते किम्?
प्रापणे अदादि परस्मैपदी.
प्रापणे इत्युक्ते प्राप्त करना.
प्रापणं, प्रापणं करना, प्राप्त करना.
अच्छा, प्राप्त करना. ओके.
प्राप्त अपि च प्राप्त इत्युक्ते एक्चुअलि नॉट रिसीविंग बट सेंडिंग.
अच्छा, क्योंकि इंग्लिश में लिखा है टू गो टू पास, जाना.
हाँ, टू गो इत्युक्ते टु सेण्ड् प्रापणे इत्युक्ते टु सेण्ड्
टु सेण्ड् अच्छा टु सेण्ड् ओके प्रापणे इत्युक्ते टु सेण्ड्
प्रापणे इस् एक्चुअली टु सेण्ड् सो याति सेण्ड् इस् अ सेण्डिङ्ग् याति
तो या याति आर टू डिफरेंट वर्ड्स या याति दो अलग अलग शब्द हैं
ना भगिनी या तो धातु अस्ति
अच्छा याति उसका ओके 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 ल, 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 लट लकार रूप हो गया
हाँ याति यातः यान्ति
अच्छा अच्छा
या धातुतः प्रयाणम आयाति प्रयाणम युडन्त पदम अस्ति ल्युडन्त पदम् अस्ति ल्युट् अन्तिम प्रत्यय ल्युट् आयाति या योगः ल्युट् ल्युट् आयाति चेत् ल्युडन्तपदं भवति ल्युडन्तपदं सर्वदा नपुंसकलिङ्गं पदं सर्वदा तेन प्रयाणम् आयाति प्रयाणं प्रयाणम्
नमस्कार भगिनी
नमस्ते कविता भगिनी स्वागतं स्वागतं
धन्यवादः प्रणाम सर्वेभ्यः
प्रणाम प्रणाम
भगिनी प्रयाण
वदतु भगिनी
ये प्रयाणम मतलब कहीं हम प्रयाण कर रहे हैं जा रहे हैं किसी मतलब यात्रा पे वगैरह तो कहा कहेंगे बट मुझे मतलब बेसिक कंफ्यूजन था एक प्रयाणम यहाँ पर नाउन है ना शब्द रूप है तो उसका हम धातु का डिस्कशन कर रहे हैं तो हर एक शब्द जो है वो भी धातु से स्टेम होता है तो धातु के धातु रूप तो अलग होंगे ही पर धातु ही रूट में है शब्दों के भी नाउन के भी
उत्तम तदेव एक अंश बहु मुख्य अंश अस्ति संस्कृत भाषायां धातुतः आधिक्येन पदानि निष्पन्नानि मेजोरिटी 99% ऑफ वर्ड्स कम फ्रॉम वर्ब्स वर्ब रूट्स इन संस्कृत विच इज यूनिक एक्चुअली मोस्ट अदर लैंग्वेजेस वी नो लाइक इंग्लिश फॉर एग्जांपल इफ यू आस्क समबडी व्हाई इट इज टेबल कॉल्ड अ टेबल और चेयर कॉल्ड अ चेयर और एनी नाउन ट्री You know, most of us don't think that, oh, it should come from a verb. Kintu, samskrita bhashayam, kimartham dhatu taha ayati, kutkopi janati va, aham tu chinchit, charchitavan, vayam tu charchitavantaha varge, purvasvin kale. Kopi smarati va, kimartham iti asti samskrita bhashayam, इत्युक्ते समानेव प्रश्नः अस्ति किमर्थं यत्र कुत्रापि अर्थः पदम् अस्ति अष्टाध्याय्यां मध्ये अपि च आप्टे शब्दकोशः मध्ये किमपि शब्दकोशमध्ये सर्वदा सप्तमी विभक्तिरूपम् अस्ति किमर्थम् एकः प्रश्नः अस्ति कोऽपि उत्तरं जानाति वा
वो अनुभव में रहते हैं तो इसलिए इसको सप्तमी में
अनुभव इत्युक्ते
एक्सपीरियंस
या somebody has experienced it like
somebody has experienced it not only that the experience of a table utpitika See, in Sanskrit, the word for table is simply utpitika. Peet, you know, what is peet? Peet is that part of our experience. See, we all have a peet. Peet is that part of the experience that we carry with us, which is flat and broad. The broadest and the flattest part of our body is our peet, correct? But when you make that peet utpitika away from the ground and available for somebody else to work on or anybody to work on. It becomes a, when it becomes a platform for some work to happen on it, it is called a utpitika, raised platform. The experience of being in a raised platform, in asana we do this, correct? Yoga asana we do this. Utpitika. We don't call it utpitika, but from that experience comes the noun table in Sanskrit. From the experience of drinking from your feet comes the noun. Kopi smarati va?
Padam.
Pada.
Pada tu asti. Pada ityukte foot. Pada tu ityukte foot. Who drinks from their feet?
Plants.
Padam kim? Noun kim?
Plants is
Pada.
प्लांट को सस्यम बोल सस्यम
सस्यम अपिचा पदम किम कोपि स्मरति वा प्लांट इत्युक्ते दैट ड्रिंक फ्रॉम इट्स फीट
पाद तो बोला ना बेटा
हां
पाद
पादम पाद
पाद पाद पह पाद Paha. Paha ityukte pibati. That experience of drinking from your feet, if you have that, then you have understood what one aspect of being a plant is. Otherwise, you are simply looking at it and calling it a plant. You don't know what a plant is. It's like saying, I theoretically know what it is to fly, but I've never flown. If you have never actually flown with your own wings, you don't know what flying is. If you've never walked, if you've never actually walked yourself, you only theoretically can guess what walking is. But the actual experience of walking will only come when you walk. Then only can you say, I know to walk. For example, we say you can read as many books as you want on parenting. Now, this is a very commonly expressed expression. That's why I'm using this. And 20,000 books you can read on parenting, but unless you become a parent, you have no idea what it is to be a parent. You see the difference between reading 20,000 books on parenting and actually becoming a parent? Do you understand the difference? It's a completely new knowledge that comes to you when you are a real parent. So this knowledge of experience, Sanskrit repeatedly reminds us, is the only true knowledge that there is. All other knowledge is simply informative. Only true knowledge is the knowledge of experience. And it doesn't mean that I physically have to do all this to experience all this. If you can Kshina vritter abhijata sieva manera grihita grahana grahyeshu tat anandanata samapattihi. We just studied this sutra. The sutra says, one kshina vritter, once we have uncovered our true light, removed all these layers that we carry, emotional layer, I am feeling like this, I was raised a Christian, I was raised, you know, so many people I have met in this country, and I never quite understood this until very recently I started to think about it more and more. I would say, you know what, what were you raised at, who are you a religious person, and they would say, oh, I'm a recovering Catholic, oh, I'm a recovering whatever, Christian, and I never understood what that actually meant. Then I used to ask, then they tell me, I was raised like this, but now I am not that, then why don't you simply say I am not a Christian? But very accurately they say I am a recovering, because it takes so long to remove all those layers of Christianity or whatever the culture or whatever it is that has been part of your experience of growing up. It takes a very, very, very long time. We all know Kshena Vritti, how difficult it is to remove our Vritti. We all know that. So this experiential knowledge is the only true knowledge. And when you have removed all the Vrittis, all these external layers that are impounded on you from your own actions and others' actions and the way you deal with life, when you remove all that, pure light alone shines, that is Brahman. When you are in that Brahman state, you are the plant, you are the Surya, you have the experience of everything. It is what in Chandogya Upanishad he says, what is it by knowing which all is known? That is the main question of Chandogya Upanishad. Guru says to his arrogant son who comes back from his school after becoming a gold medalist topper in his school, and this sparrow is also hovering again. Very interesting. The guru sends his own very well-known guru sends his son to another gurukul because the son is very arrogant and refuses to learn from his father. They say, "You go to some other school. You are not fit for my school. I cannot teach you." So he sends his son. Now he goes. 24 years later, he returns from the gurukul. And he's a brilliant boy. So he got everything. He scored 100%. Comes home, he walks around with his nose up high. And father sees that he's very arrogant. So father immediately understands the reality. Then he lets him settle down. He says, "Okay, son, can we have a talk?" He says, "Yes, Dad, what's up?" He says, "Well, son, what is it that you have learned in school?" So he says, "I've learned so much. I've learned everything." He says, "Okay. What is it by knowing that, by knowing which all is known?" The son says, "What do you mean? Be more explicit, I can explain then. I'm not sure what you mean." He repeats again. So this knowledge, this is what I'm saying. So you cannot say that if you put everything in Saptami, or you put all the meanings of words in Saptami, then you have to lie at some point, because I'll never know what it is to be an earthworm. I can only guess. No. When you have Kshena Vrittir Abhijata Seva, Manera, you become that crystal clear money. Having crushed, having removed, torn apart, having clashed with all the Vrittis, finished, then you shine. And when you shine in that Brahman, you experience Padapaha. Means you have the experience of a plant drinking from your feet and shining out into leaves. That experience you have. From that experience comes the word Padapaha. It is why it is always experiential, the knowledge. What was your question, Kavita Bhagini? Puna vadatu.
That dhatu forms to stem up from dhatus only, but when we are discussing noun forms also, shabda rupas, unka bhi origin dhatu se hi hai. Vaise.
Tadeva. Avagatam, now you understand why it is like that. That is why Sanskrit is a noun minimal language. Minimal nouns they have, words. Most of their words are actually dhatu rupas. What does that mean? English has, I don't know, but I'm sure there are at least 100 words for shirts. Polo neck, tank top, button down. There are many more. Zip up, hoodie. T-shirt, you know, I can come up with how many, very limited, but still, there are probably 100 words, noun words for shirts, 100 noun words for pants, 100 noun words for shoes, 100 noun words for makeup, 100 noun words for hair styles. Anything that you can sell in a market, it helps to have a noun for it, because then you can talk about how amazing it is and it will make you feel so happy. You will get ultimate freedom by having this hairstyle. So this is a noun heavy language. Most of us are surrounded by noun heavy language now, because that is a culture. But if you go to a noun minimal language, which means you simply focus on the function of that noun. What is the purpose of a shirt? Clothing, actually. Simply to cover, protect the body. If it is raining, you cover. If it is sunny, you don't want to burn. You know, sometimes you just want to cover, that's all. If you're cold, you cover. That's all, finished. Why you have to have all 50, 100 elaborate names of shirts? You know, simply kapda. That is why India had only unstitched clothing, because they knew you can go into this stitching and you, it becomes, you know, its own industry. No need. Minimize. So, word in the language also, words almost, majority of the words, there are some words that don't come from nouns, from dhatus, Bhagini. And those are like, I still wonder if it is really true that they don't come from dhatus, but some of the avyaya padani, I don't know if they come from dhatus. I have not found sources of dhatus for some of them, and neither my teachers. And there are some padas which are called as pratipadika mula, means they come from some pratipadika for which there is, they say that is the mula. Some of my teachers have given me some words when I have been asking, where does this word come from? And they say, no, it has a pratipadika origin. It doesn't have a dhatu origin that we know of. But you know, 80% of Sanskrit knowledge is lost. 80% of Indian knowledge is actually lost. We are living in less than 20% knowledge and finding so much. So, either way, whether all words, but it's for sure majority of the words even today in Sanskrit come from dhatus. So that they take you to the true experience of that noun meaning. Avagatam Bhagini?
Dhanyavadah.
Astu. Loka janaha loka yanena prayanam kurvanti. Ityukte kim Bhagini? Dikshika Bhagini?
Ityukte log bus me घूमने जा रहे हैं प्रयाणम
उत्तम
प्रयाणम
वाक्यम संपूर्ण वाक्यम बहुवचनम अस्ति चेत वदतु भगिनी
संपूर्ण वाक्यम बहुवचनम वदामि जनाः लोकयानैः जनाः लोकयानैः प्रयाणं कुर्वन्ति का होएगा हाँ कुर्वन्ति
एव उत्तमम् जनाः लोकयानैः प्रयाणं
द्विवचन जनौ लोकयानेभ्यां जनौ लोकयानेभ्यां जहां लोकयानेन तृतीय विभक्ति एक वचनम
हाँ.
तो तृतीय विभक्ति दो वचन द्विवचन लोकयाने भ्याम होगा ना
वदतु राम अस्ति चेत् वदतु त्रीणि रूपाणि
रामेण रामाभ्याम रामैः
हाँ रामाभ्याम अस्ति वा रामेभ्याम अस्ति वा अत्र
रामाभ्याम
हाँ सो अत्र
रामई रामाभ्याम, तो रामाभ्याम तो लोकयानाभ्याम, ओके हाँ जनौ लोकयानाभ्याम, जनाह रहेगा कि फिर जनऊ करेंगे उसको, द्विवचन जनऊ द्विवचन संपूर्ण द्विवचन, तो जनऊ लोकयानाभ्याम प्रयाणम प्रयाणम प्रणाय प्रयाणम ही रहेगा वो कैसे बदल प्रयाणम प्रयाणम कुरुतः कुरुतः
युडन्तम् अस्ति, युडन्तम् अस्ति चेत् अपि वचनं तु भवितुम् अर्हति, प्रयाणं प्रयाणे प्रयाणानि तदपि भवितुम् अर्हति भगिनि, यथा फलम् अस्ति तदपि अपि च सो जनौ लोकयानाभ्यां क्रियापदं किं
कुरुतः कुरुतः
उत्तमं शैलजा भगिनी अग्रिमं पठतु
आं भगिनि एषः स्यूतेन वस्तूनि आनयति आनयति नयति आ उपसर्गपदमस्ति नयति द्विकर्मकपदमस्ति
नीनयति उत्तमं
वस्तूनि स्यूतेन वस्तूनि वस्तूनि द्वितीयविभक्ति बहुवचनपदमस्ति स्यूतेन स्यूतेन अकारान्तः पुल्लिङ्गः तृतीयविभक्ति एकवचनपदमस्ति एषः दकारान्तः एतत् शब्दवत् प्रथमाविभक्ति एकवचनम् अस्ति
अत्र वाक्ये कति पदानि सन्ति
चत्वारि पदानि सन्ति
चत्वारि पदानि सन्ति किमपि सम्बन्धः अस्ति वा
एषः स्यूतेन वस्तूनि आनयति कः सम्बन्धः भगिनि
किमपि सम्बन्धः अस्ति
वा एषः स्यूतेन
एषः स्यूतेन वस्तूनि आनयति
अर्थः हि मेक्स् द बेग्स् हि मेक्स् द थिङ्ग्स् वित् द बेग् स्यूतेन वस्तूनि आनयति नो सोरि ओके दे केरि द थिङ्ग्स् इन् द बेग् हि केरिस् द थिङ्ग्स् इन् द बेग्
एषः हि अपि अस्ति
अपि च
इट् अपि अस्ति आङ्ग्लभाषायाम् इट् इत्युक्ते किमपि
किमपि पुल्लिङ्गशब्दः किमपि शब्दः अस्ति
यदि एषः इत्युक्ते विशेषण अस्ति चेत्
एषः
विशेषणपदम् अस्ति चेत् पुनः वदतु वाक्यम्
एषः स्यूतेन वस्तूनि आनयति एषः स्यूतेन
एषः वस्तूनि एषः स्यूतेन तु प्रथमविभक्ति एकवचनरूपम् एषः तु द्वितीयाविभक्ति एकवचनम् यदि विशेषणं पदम् अस्ति एष इत्युक्ते दिस् बेग् अस्ति चेत् वाक्यं
द्वयो मध्ये विशेषणभावः अस्ति एषः स्यूतेन
कथं भगिनि विशेषणविशेष्यभावः कथं जानीमः यदि अस्ति वा न वा लक्षणः
लक्षणः लिङ्गं विभक्ति वचनं समानरूपम् अस्ति इत्र एष
करोतु समानं करोतु
एतेन स्यूतेन वस्तूनि आनयति अपि च विशेषणविशेषभावः अस्ति एषः स्यूतेन विशेषणभावः अस्ति वा भगिनि नास्ति वा नास्ति
किन्तु एषः स्यूतेन अस्ति चेत् अर्थः कः सम्बडि आनयति केन आनयति स्यूतेन आनयति अवगतम् इत्युक्ते रामः स्यूतेन वस्तूनि आनयति कः रामः एषः रामः एषः रामः स्यूतेन वस्तूनि आनयति आनयति इत्युक्ते किम्
आनयति इत्युक्ते क्यारि और् लीड् हियर् इट् रिलेट्स् द वर्ड् वित् क्यारि
क्यारि किन्तु अर्थः कः आनयति
अर्थः आनयति अर्थः इस् ऐ डिड् नाट् गेट् इट् भगिनि अर्थः इस् आनयति उपसर्गः अस्ति नयति द्विकर्म क्रियापदं द्विकर्मक्रियापदं स्वीकरोति इत्र एकः एकं कर्मपदम् अस्ति
अस्तु अस्तु भगिनि शृणोतु गच्छति आगच्छति भेदः अस्ति वा
गच्छति इस् गोयिङ्ग् आगच्छति इस् कमिङ्ग् बेक्
अत्र किम् अभवत्
आनयति
नयति आनयति अर्थभेदः अस्ति वा
आनयति आम्
आनयति नयति इत्युक्ते टेक्स् अवे क्यारि आनयति इत्युक्ते विपरीतार्थक वदतु ब्रिङ्ग् अवगतम् आ अस्ति तत्र आदौ आ अस्ति चेत् ब्रिङ्ग् अवगतम्
अवगतं
यथा गच्छति आगच्छति अत्र नयति आनयति वस्तूनि वस्तूनि पदस्य विभक्तिरूपाणि एकवारं स्मारयतु भगिनि
वस्तूनि अकारान्तः नपुंसकलिङ्गपदम् अस्ति कर्मपदम् इत्र कर्मपदं बहुवचनपदम् अस्ति इति वाक्ये वस्तूनि कर्मपदं बहुवचनकर्मपदम् अस्ति
विभक्तिरूपाणि वदतु
वस्तूनि वस्तूनि एकवचनं वस्तु वस्तु
ऐम्
नाट् श्योर् आफ़् इट् भगिनि सोरि
कविता भगिनी जानाति वा वस्तु कीदृशपदम्
यस् आं भगिनि ह्रस्व उकारान्तः नपुंसकलिङ्गः मधुवत् शब्दः अस्ति वस्तु प्रथमविभक्ति वस्तु वस्तूनि वस्तूनि द्वितीयविभक्ति वस्तु वस्तूनि वस्तूनि तृतीयविभक्ति वस्तूना वस्तुभ्यां वस्तुभिः चतुर्थविभक्ति वस्तूने वस्तुभ्यां वस्तुभ्यः पञ्चमी विभक्ति वस्तुनः वस्तुभ्यां वस्तुभ्यः षष्टिविभक्ति वस्तुनः वस्तुनोः वस्तूनां सप्तमी विभक्ति वस्तूनि वस्तुनोः वस्तुषु.
उत्तमम् उत्तमं तदेव अवगतं शैलजा भगिनी. विशेष उकारान्त उकारान्त
विच् पेज् इस् इट् आन् इन् शब्दमञ्जिरी पुटसङ्ख्या
29 प्रिण्टेड् पेज्
29.
अच्छा थैंक यू धन्यवाद धन्यवाद.
संस्कृतभाषायां वदतु पुटसङ्ख्या कविता भगिनी.
नवविंशतिः
तमे पुटे. उत्तमं
समय आपने कहा नवविंशतिः
तमे.
फिर क्या कहा आपने?
तमे पुटे.
समय मतलब
समय उस पन्ने पर. विंशति
अच्छा हाँ सो 29 हाँ तो टी एच के लिए आप बोल रहे 29th पेज पर.
हाँ किंतु ओनली आफ्टर विंशति ही. बिफोर विंशति वी डोंट यूज तमा.
सो दैट्स स स फॉर समय समा. I'm not getting the word. Navavimshati hi samay puthe.
Tama, tama, takara. Takara, bhagini.
Achha, okay. Okay, got it now. Dhanyavad.
Samay puthe. Ityukte, dashama, dashatam, dashatame iti tu na vadama sanskrita bhashayam. Only after 20.
Astu, dhanyavad.
नवविंशति तमे पुटे पश्यतु मधुवत् अस्ति वस्तु नपुंसकलिङ्गं पदं वस्तु वस्तूनि सोरि वस्तु वस्तूनि वस्तूनि इति. अवगतं शैलजा भगिनी?
यस् भगिनि.
उत्तमम् अग्रिमं करोतु कविता भगिनी.
आम् भारती द्विचक्रिकेन विद्यालयं गच्छति.
केन वा कीदृशपदं?
नै इट्स् आकारान्त स्त्रीलिङ्ग तृतीयविभक्ति द्विचक्रिकया क्षम्यताम् भारती द्विचक्रिकया विद्यालयं गच्छति.
द्विवचनम् अस्ति चेत् सम्पूर्णवाक्यं वदतु.
भारते द्विचक्रिकयां द्विचक्रिकाभ्यां विद्यालयं गच्छतः.
पुनः वदतु भारती इकारान्त अस्ति द्विवचनरूपम्.
ओ ओ दीर्घ ई हा भारत नदी नद्यौ भारती भारतौ भारत्यौ भारत्यौ द्विचक्रिकाभ्यां विद्यालयं गच्छतः.
विद्यालयं द्विवचनम् अस्ति चेत्
विद्यालयं ये नपुंसकलिङ्गं है तो उसका विद्यालये
कीदृशपदं विद्यालय.
एक मिनट आई विल जस्ट चेक. ये है पुंलिङ्ग पदं. सो इट विल बी विद्यालयौ. सो आई विल से इट अगेन. भारत्यौ द्विचक्रिकाभ्यां विद्यालयौ गच्छतः.
बहुवचनम् अस्ति चेत् सम्पूर्णवाक्यम्.
बहुवचन विल् बी भारत्यः द्विचक्रिकाभिः द्विचक्रिकाभिः विद्यालयं तो सेकेण्ड् विद्यालयान् नो विद्यालयैः गच्छ गच्छन्ति. I'm struggling. विद्यालयं, ये इसका विद्यालयं इस द्वितीया विभक्ति, तो इसका हाँ विद्यालयान गच्छन्ति. I'll say it again. भारत्य अहं पुनः वदामि, भारत्यः द्विचक्रिकाभ्या भिः विद्यालयान् गच्छन्ति. धन्यवादः.
पापा जी अग्रिमं पठतु.
कुञ्चिका तारम् उद्घाटयति.
तृतीया विभक्ति अस्ति चेत् एषा,
एषा एषा कुञ्चिके
यथा रमा, रमा तृतीया विभक्ति वदतु. रमा रमे
रमा मालया कुञ्चिकया.
उत्तमम् उत्तमम्.
एषा कुञ्चिकया तारम् उद्घाटयति.
अर्थात् पापा जी एषा कुञ्चिकया तालम् उद्घाटयति. अर्थात्
इस कुञ्जी से ताले खुलते हैं. यह कुञ्जी ताला खोलती है.
किन्तु यः कुञ्जी विशेषणपदम् अस्ति चेत् एषा अपि तृतीया स्वीकरोति.
एषा कुञ्चिका,
एषा तृतीया विभक्ति.
एताया,
एताया, एताया वा?
आम् एतया, एतया,
एतया. पट पट वदतु पापजी. एतया,
एतया कुञ्चिका,
कुञ्चिका कुञ्चिका, कुञ्चिका तृतीया वदतु. एतया कुञ्चिका,
कुञ्चिकया,
एतया कुञ्चिकया विशेषण विशेषभाव अस्ति चेत्
एतया कुञ्चिकया तारम् उद्घाटयति.
उद्घाटयति. पापजी एकः प्रश्नः अस्ति, यदि विपरीतार्थक विवक्षा अस्ति इत्युक्ते अभी तो ताला खुल रहा है, ताला बंद होता तो कथं वदामः? जानाति वा पदम्? पिघाति एकवारं, पिघाति एकवारं अष्टाध्याय्यां मध्ये पश्यतु. पिघाति अस्ति,
पिघाति,
पिघाति एकवारं पश्यतु भगिनि. चप्पल तुम्हारी उधर है ना कमरे में, तुम लेके गई क्या? पिघाति अस्तु, पिघाति नास्ति तत्र, कुत्र अस्ति पिघाति? एकनिमिष पदम् पिघानम्, पिघानं तु अस्ति एव किन्तु पिघाति किमर्थं नास्ति? पिघानम्, पिघानम् अस्तु, पिघानम् इति पदं स्वीकरो कृत्वा वाक्यं वदतु दीपशिखा भगिनी. पिघानम् इत्युक्ते बन्द्, बन्द् करना, करोति इति. पिघानं करोति.
अच्छा, पिघानं प,
हाँ हाँ, पिघानम् इति पदम् अस्ति भगिनी.
पिघानं करोति, अच्छा
वदतु
एषया कुञ्चिकाया एतया कुञ्चिकया तालं पिघानं करोति
अस्तु
करोति तृतीय करोति तो आएगा
लघुवाक्यम् एषा स्वीकरोतु भगिनी अत्र एषा करोति
हा एषा करोति आम् हा एषा करोति
इत्युक्ते कोई एक स्त्री करती है
किं
करोति
किं करोति पिघानं करोति
पिघानं
नहीं खोलना है तालं पिघानं करोति ताला खोलती है
तालं पिघानं करोति
खोलती है ये तो खोलती है भी तो बोल सकते हैं लघु वाक्यम में पिघानम करोती खोलती है पूछेंगे क्या खोलती है दरवाजा की ताला
उत्तम पिघानम करोती पिघानम बंद करती है पिघानम इत्युक्ते
हाँ पिघानम सॉरी हाँ सॉरी पिघानम करोती मतलब बंद करती है क्या बंद करती है फिर पूछ सकते हैं ना किम पिघानम करोती
एषा पिघानम करोती किम पिघानम करोती तालम पिघानम
करोती
केन पिघानम करोती तालम
केन कुंचिकया कुञ्चिकया तालं पिघानं करोति
समीचीनम् इत्युक्ते एषा पिघानं करोति अत्र तदेव समीचीनं
भगिनि स्पोकन् संस्कृत मध्ये पिधानम् इति अस्ति इति दत्तं
पिधानं वा पिघानं वा भगिनि
दकार अस्ति भगिनि पिधान टु क्लोज्
अस्ति वा एकनिमिष पुनः पश्यामि कुत्र अस्ति एकनिमिष पिधान हा हा पिधान नाट् पिघान उत्तमं भगिनि क्षम्यतां मम दोष पिधान अस्तु किमर्थं पिधान अस्ति क्षम्यतां सर्वे कुत्र अस्ति भगिनी अहं तु न अन्वेषणं कृतवती अस्तु अस्तु अधुना तु पश्यामि पिधानं करोति इति पिधानं करोति वर्ब् पिधानं कुत्र अस्ति अष्टाध्यायी मध्ये धातु वा धातु किं जानाति वा सुधा भगिनी पिद्ध
न भगिनी
पिद्ध धातु अपि नास्ति पिद्ध धातु नास्ति कवर
अपि एकम् अर्थम् अस्ति
कवर् तु अस्ति अस्तु किञ्चित् द्रष्टव्यं भगिनि क्षम्यताम् अस्तु पिधानं अधुना तु पिधानमेव समीचीनं किञ्चित् दृष्ट्वा वदामि अग्रिमवर्गे. अहमपि न किञ्चित् सम्यक् न जानामि. अस्तु, पिध पिघ पिधानम्. उत्तमं, धन्यवादः भगिनी. दीक्षिका भगिनी पुनः एकवारं वदतु.
आं भगिनि, एषा कुञ्चिकया तालं पिधानं करोति.
पिधानं
करोति
इत्युक्ते लघुवाक्यम्.
एषा करोति, एषा पिधानं करोति. देन् किं किं पिधानं करोति? एषा तालं पिधानं करोति.
उत्तमम् उत्तमम्. अग्रिमं कस्य क्रमः अस्ति? सुधा भगिनी वा वदतु. सुधा भगिनी,
कर्तरी सौचिकः कर्तर्या वस्त्रं कर्तयति.
इत्युक्ते
टेलर कट्स द क्लॉथ विथ सिजर्स.
कर्तयति, कर्तर्या, कर्तर्या. सर्वाणि रूपाणि वदतु.
कर्तरी, कर्तर्यौ, कर्तर्यः, कर्तर्या, कर्तरीं, कर्तर्यौ, कर्तरीः, कर्तर्या, कर्तरीभ्यां, कर्तरीभिः, कर्तर्यै, कर्तरीभ्यां, कर्तरीभ्यः, कर्तर्याः, कर्तरीभ्यां, कर्तरीभ्यः, कर्तर्याः, कर्तर्योः, कर्तरीणां, कर्तर्यां, कर्तर्योः, कर्तरीषु,
कर्तरीषु. उत्तमम् उत्तमं, किञ्चित् क्लिष्टः जातः किन्तु उत्तममेव. कर्तरी, अस्तु. शैलजा भगिनी, कर्तरी सर्वाणि रूपाणि वदतु.
आं भगिनि, कर्तरी, कर्तरी, कर्तर्यौ, कर्तर्यः, कर्तरीं, कर्तर्यौ, कर्तरीः, कर्तर्या, कर्तरीभ्यां, कर्तरीभिः, कर्तर्यै, कर्तरीभ्यां, कर्तरीभ्यः, कर्तर्याः, कर्तरीभ्यां, कर्तरीभ्यः, कर्तर्याः, कर्तर्योः, कर्तरीणां, कर्तर्यां, कर्तर्योः, कर्तरीषु.
उत्तमम् उत्तमम्. सौचिकः, सौचिकः, अस्तु. सुधा भगिनी, द्विवचनं सम्पूर्णम् अस्ति
चेत् सौचिकौ कर्तरीभ्यां वस्त्रे
कर्तर्यतः. उत्तमं, बहुवचनम् अस्ति चेत्
सौचिकाः सौचिकाः कर्तर्यः, कर्तरी, सौचिकाः कर्तरीभिः वस्त्राणि कर्तर्यन्ति.
इति कर्त, अस्तु. चुरादिगणे इति धातु अस्ति, सर्वे पश्यतु, कर्त धातु अस्ति, कर्त चुरादिगणे अस्ति. तेन यकार आयाति, आय आयाति. अवगतम्?
हाँ भगिनी
हाँ कर्त सर्वे पश्यतु अष्टाध्याम अष्टाध्यायां मध्ये कर्त कर्त धातु रूपम अस्ति शैथिल्ये इति अर्थदत्तं शैथिल्ये अपि सप्तम्यार्थं दत्तं शैथिल्ये
शैथिल्ये इत्युक्ते अर्थः
शैथिल्ये श्रेडिङ्ग् लैक् ब्रेकिङ्ग् अपार्ट् श्रेडिङ्ग् कटिङ्ग् नो स्टिचिङ्ग् शैथिल्ये पापाजी
शैथिल्ये has resemblance with shithil shithilta na
shithil itukte
dheema ho jana kamzor hona weakness hum log matlab age hota hai to shithil hoti jati hai indriyan ha
shithil ho jana itukte wither to hai na uttama uttama tena so shaithilye api saptami सर्वाणि रूपाणि एकवारं पठतु कविता भगिनी परस्मैपदी
कर्तयति कर्तयतः कर्तयन्ति कर्तयसि कर्तयतः कर्तयथ कर्तयामि कर्तयावः कर्तयामः
आत्मनेपदी पठतु
कर्तयते कर्तयेते कर्तयन्ते कर्तयसे कर्तयेथे कर्तयध्वे कर्तये कर्तयावहे कर्तयामहे
उत्तमम् उत्तमम् आत्मनेपदीरूपाणि किञ्चित् भिन्नानि साधारणतया तु परस्मैपदीरूपाणि एव आरम्भे वयं पठितवन्तः उत्तमम् अस्तु चुरादिगण अस्ति चुरादिगणे साधारणतया सर्वाणि सर्वे धातवः उभयपदी अस्ति सर्वे धातवः उभयपदी अस्ति चुरादिगणे चुरादिगणे विशेषता किं कोऽपि जानाति वा चुरादिगणे विशेषता किम्
चुरादिगणे अर्थः स्वार्थनिच्च भवति
स्वार्थे णिच्चायाति इत्युक्ते किं स्वार्थे णिच्चायाति इत्युक्ते किम्
किसी काम को हम हमारे लिए करते हैं किसी के द्वारा नहीं करते हैं
किसी दूसरे के लिए नहीं स्वयं की जब प्रेरणा होती है जब स्वयं की प्रेरणा स्वयं के लिए प्रेरणा होती है खुद से करवाना होता है तो खुद के लिए करना होता है तो स्वयं की प्रेरणा देते हुए उसमें निच का प्रत्यय लगता है निच इज अ सफिक्स निच इज अ सफिक्स जस्ट लाइक ती इज अ सफिक्स करोति गच्छति ती इज अ सफिक्स सो निच इज अ सफिक्स सफिक्स संस्कृत भाषायां प्रत्यय प्रीफिक्स संज्ञापदं किं कोऽपि जानाति वा संस्कृतभाषायाम्
उपसर्ग उपसर्ग उपसर्ग
प्रीफिक्स अस्ति चेत् उपसर्ग सफिक्स अस्ति चेत् प्रत्यय किन्तु धातुतः यदा किमपि क्रियापदं निष्पन्नं भवति चेत् बहूनि सोपानानि भवन्ति बहूनि सोपानानि सोपानानि इत्युक्ते
स्टेप्स्
स्टेप्स् उत्तमम्। बहुत सारे स्टेप्स लगते हैं। अधुना पश्यतु, कर्तयति प्रथम पुरुष एकवचन रूपं परस्मैपदी, सर्वे पश्यतु, कर्तयति एकवारं क्लिक करोतु, कर्तयति, पश्यतु अधुना दक्षिण भागे पश्यतु, कर्त शैथिल्ये बहवः सूत्राणि भुवादयो धातवः, उपदेशे जनुनासिक इत् तस्य लोपः, लह कर्मणि च भावे वर्तमाने लट् लस्य हलन्त्यं तस्य लोपः, उपदेशे जनुनासिक इत् तस्य लोपः, तदनन्तरं सिप् तस्जि सिप् थस्मस् Vipmasmas, all these are the pratyayas. Look at the step number which has 3.4.78 sutra. Are you at that step now, everybody? You look at the sutras on the right side, the number 3.4.78.
Haan, aam bhagini. Tipta.
क्लिक् करोतु। अस्तु, दीर्घसूत्रमस्ति, कथं वदामः, तिप् तस् झि सिप् थस्थ मिप् वस्मस्त आतांझ था साथां ध्वम् इड्वहि महीं इति सूत्रम्। एते सर्वे प्रत्ययाः, एते सर्वे प्रत्ययाः, तिप् तस् झि प्रथमविभक्तिरूपाणि, सारी प्रथमपुरुषरूपाणि, सिप् थस्थ मध्यमपुरुषरूपाणि, मिप् वस्मस् उत्तमपुरुषरूपाणि, सर्वे परस्मैपदी, तदनन्तरम् आत्मनेपदीरूपाणि आयान्ति, स आतां झ, प्रथमपुरुष आत्मनेपदीरूपाणि प्रत्ययरूपाणि, था आथां ध्वम्, तेन वयं किं रूपम् आयाति, भाषध्वम्। अपि च अधुना पश्यतु, आत्मनेरूपम् अस्ति कर्तयद्वे, आत्मनेपदं रूपं मध्यमपुरुष बहुवचनं रूपं पश्यतु, कर्तयद्वे, द्वे आयाति, कथम् आयाति, अत्र अस्ति एव, आथां ध्वम्, मध्यमपुरुष प्रत्ययान्तरूपाणि, तदनन्तरम् उत्तमपुरुष आत्मनेपदीरूपाणि, इड् वहि महीं, तेन आयाति कर्तर्ये, कर्तयावहे, कर्तयामहे, कर्तये, कर्तयावहे, कर्तयामहे, तेन इति रूपाणि आयान्ति। इत्युक्ते बहूनि सोपानानि सन्ति। अस्तु, अधुना पुनः पश्यतु, तिप्तस्जि एकं सूत्रमस्ति, तेन प्रत्ययान्तरूपम् आयान्ति, तदनन्तरम् अधोभागे गच्छतु, णिच् आयाति, कर्तयोगः णिच् योगः तिप् मध्ये णिच् आयाति, किमर्थं णिच् आयाति, चुरादिगणे अस्ति, चुरादिगणे णिच् आयाति, णिच् कुत्र आयाति, मध्ये आयाति, धातु अपि च अन्ते तिप्तस्जि इति सूत्रेण ये ये प्रत्ययाः सन्ति तस्य मध्ये णिच् आयाति, णिच् आयाति चेत् एकं नूतनधातु निष्पन्नं भवति. नूतनधातु किं? कर्ति. कर्ति आयति. कर्ति नूतनधातु अस्ति चेत् तदनन्तरं शब्दः अ आयाति, तिप् आयाति. तिप् तु अन्तिम क्रियापदस्य तिप् तस् झि इति तिप् आयाति. तदनन्तरं सन्धि भूत्वा अपि च बहूनि कार्याणि भूत्वा मध्ये कर्तयति इति पदस्य मध्ये प्रथमं तु कर्त् अस्ति. पश्यतु एकवारं, दिस् इस् नौ द सिम्पल् वे आफ् लुकिङ्ग् एट् इट्. फर्गेट् आल् द स्टेप्स्, वेरी सिम्प्लि नौ यु लुक्. कर्त् योगः अय योगः ति इत्युक्ते कर्तयति. अवगतम्? पुनः वदामि, कर्त् कर्त किं? कर्त तु धातुरूपमेव. कर्त् तकार, कर्त् योगः अय, मध्ये अय आयाति, तदनन्तरं ति आयाति. अवगतम्? भागत्रयम् अस्ति चेत् मध्ये अय आयाति. यदि किमपि क्रियापदानि पदं दृष्ट्वा मध्ये अय दृष्ट्वा ऊहां कृतवन्तः वयं, किम्? ओ, चुरादिगणे अस्ति वा? एकः प्रश्नः उदयति. ओ, मध्ये अय अस्ति. गच्छति मध्ये अय अस्ति वा? नास्ति, नास्ति. गच्छति तु नास्ति, मध्ये अय नास्ति. किन्तु चुरादिगणस्य धातु अस्ति चेत् सर्वदा मध्ये अय आयाति एव. अवगतम्?
आं भगिनि.
आत्मनेपदीरूपम् अपि पश्यतु, कर्तयते, अन्ते ते आयाति. आदौ कर्त् अस्ति, मध्ये अय अस्ति इति अय एकं क्विक् रूल् आफ् थम्, क्विक् रूल् आफ् थम् टु ऐडेण्टिफै चुरादिगण. अवगतम्? अस्तु अस्तु. तेन कर्तयति आयाति. उत्तमम्. शैलजा भगिनी अग्रिमं पठतु.
आं भगिनि. दूरवाणी आपणिकः दूरवाणी, ईकारान्तः स्त्रीलिङ्गशब्दः अस्ति. दूरवाण्या आपणिकः दूरवाण्या सम्भाषणं करोति.
दूरवाण्या सम्भाषणं करोति तृतीया विभक्ति. दूरवाणी कीदृशपदम्?
दूरवाणी ईकारान्तः स्त्रीलिङ्गपदम् अस्ति.
यथा
नदी शब्दवत्.
आपणिकः इत्युक्ते?
आपणिकः इत्युक्ते शाप्कीपर्.
अर्थः कः सम्पूर्णवाक्यस्य?
शाप्कीपर् डस् हिस् कान्वर्सेशन् वया फोन्.
कन्वर्सेस् वया फोन्. उत्तमम्. द्विवचनमस्ति
चेत्? द्विवचनमस्ति चेत् आपणिकौ दूरवाणीभ्यां सम्भाषणं कुरुतः.
सम्भाषणं द्विवचनमस्ति चेत्?
सम्भाषणं सम्भाषणे कुरुतः.
बहुवचनमस्ति चेत्?
बहुवचनमस्ति चेत् आपणिकाः दूरवाणीभिः सम्भाषणानि कुर्वन्ति.
उत्तमं. सुन्दरम्. उत्तमम्. उत्तमम्. अग्रिमं कविता भगिनी.
आम्. बालिका अंकन्या चित्रं लिखति. बालिका पेंसिल से चित्र को लिख रही है.
उत्तम. चित्र बना रही है, चित्र लिख रही है. उत्तम. द्विवचन नास्ति.
ओके. हाँ, द्विवचन. बालिके अंकन्यौ चित्रे लिखतः.
लिखतः तकार. लिखतः.
ओके. लिखतः
किमर्थं लिखतः? गच्छति, गच्छतः, गच्छन्ति.
हाँ, प्रथम पुरुष द्विवचन. सॉरी, मैं मध्यम पुरुष द्विवचन बाय मिस्टेक सोच के बोला. या
बहुवचन
अंकनी भ्याम होना चाहिए ना उसका द्विवचन. अंकन्यौ.
अंकनी भ्याम एव. क्षम्यतां, मम दोषः अपि. उत्तमं, धन्यवाद दीक्षिका भगिनी. पुनः वदतु भगिनी.
बालिके अंकनीभ्याम चित्रे लिखतः.
लिखतः. उत्तमम्. उत्तमम्. बहुवचन रूपमस्ति.
बालिकाः अंकनीभिः चित्राणि लिखन्ति.
उत्तमम्. उत्तमम्. सुन्दरं. तदेव, चित्राणि लिखन्ति. अस्तु. अस्तु, अभ्यासं तु उत्तममेव. आनन्दम् अनुभवन्ति वा?
आं भगिनि.
आं भगिनि.
अस्तु, अग्रिमपुटे पापाजी पठतु.
सः पुत्रेण सह आपणं गच्छति. सः पुत्रेण सह. साउंड ऑफ द टू वर्ड इज सेम बट मीनिंग इज डिफरेंट. सः मीन्स ही एंड सः मीन्स विद.
उत्तम. उत्तम. सः यत्र वर्णद्वयमस्ति सयोगः हकार तत्पदम् उपपदविभक्ति उपपदविभक्तिरूपं नयति. इट् क्रियेट्स् अ उपपदविभक्ति. उपपदविभक्ति इत्युक्ते तस्य निकटस्य पदस्य विभक्ति तृतीया भवेत् इति. इत्युक्ते सः कारणेन तस्य पूर्वस्मिन् पदे तृतीया भवेत्. उत्तेन पुत्रेण सह प्रथम विभक्ति एकवचनरूपं सह विसर्ग अस्ति. तत्र तु तत्पदं तु केवल संज्ञापदमस्ति. किन्तु सः हकार अस्ति चेत् तत्तु अव्ययपदमस्ति. सः अव्ययपदं सः कारणेन उपपदविभक्ति भवति. तेन पुत्रेण सह आयाति. अवगतम्? नाम किम् उपपदविभक्ति? उप इत्युक्ते समीपम् अस्ति चेत् यत् पदं तत् पदस्य उपपदविभक्ति. उप इत्युक्ते यथा उपकृष्णम् इत्युक्ते किं कृष्णस्य समीपम्
उपवन् उपवास
हा उपवास उपवास उप अस्ति उप एकम् अव्ययपदमस्ति किन्तु अर्थः तु किम् अस्ति समीपं समीपार्थे अस्ति उप उपपद उपपद तृतीया इति वदामः संस्कृतभाषायाम् इत्युक्ते पुत्रेण कीदृशतृतीया पुत्रेण उपपदतृतीया इत्युक्ते पुत्रेण सह हकार सः पुत्रेण सह आपणं गच्छति सः पापजी तत् वाक्ये यदि सः द्वितीय सहकार युक्त्वा सः नास्ति चेत् अर्थः परिवर्तनं किम् यदि यदि रक्तवर्ण रक्तवर्णेन यः पदम् अस्ति सः वाक्ये नास्ति चेत् इत्युक्ते सः पुत्रेण आपणं गच्छति इत्युक्ते किम् इत्युक्ते किम्
पुत्रेण आपणं मिलामः पुत्रेण आपणम्
न न न न बिलोङ्ग्स् टु न पुत्रेण इत्युक्ते तृतीय तृतीय अर्थः कः द्वारा दीक्षिका भगिनी किञ्चित् साहाय्यं करोतु
वः पुत्र के द्वारा दुकान जाता है तो वह पुत्र के द्वारा दुकान जाता है मतलब वह पुत्र के साथ दुकान जाता है
ना 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 साथ तो ना
क्यों
के द्वारा इत्युक्ते किमपि एजेंट अस्ति दैट इज द
पुत्र हाँ एजेंट आम के द्वारा पर लोकयानम एजेंट होता है पर पुत्र तो एजेंट मतलब उसके साथ ही हो गया फिर
ना 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 ते
ना नहीं हम तो यही समझे
भगिनी किंचित भेद अस्ति तत् भेद कथं दर्शनीयं पुत्रेण सह दट इज वाई वी एड सह वेन यू एड सह इट मेक्स द मीनिंग ऑफ तृतीया विथ नॉट बाय मीन्स ऑफ दट इज हाउ वी डिफरेंशिएट बाय मीन्स ऑफ एंड विथ वेन यू एड अ सह इट बिकम्स इन द कंपनी ऑफ वेन यू डोंट हैव अ सह इट बिकम्स बाय मीन्स ऑफ अवगत
जैसे हम कहें सह लोकयानेन आपणम गच्छति मतलब वह लोकयानम के द्वारा दुकान जाता है मतलब लोकयानम में बैठ के गया होगा है ना तो क्योंकि उसमें बैठ सकते हैं पर पुत्र में तो आप बैठ नहीं सकते ना तो मतलब पुत्र के साथ गया
ना 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 दैट इज
ऐसा नहीं होता
चिन्तनं तु समीचीनं चिन्तनं समीचीनम् अस्ति चेत् संस्कृतभाषायामपि संस्कृत अस्ति संस्कृतम् अस्ति इत्युक्ते पर्फेक्ट् अस्ति नो गेस् वर्क् पर्फेक्ट् लेङ्ग्वेज् इस् पर्फेक्ट् कथं पर्फेक्ट् अस्ति पुत्रेण सह यदि सः इति पदम् अस्ति तेन वयं जानीमः ओ इन् द कम्पनी आफ् वित् देट् पर्सन्
ओके तो फिर मतलब अपनी जो कारक की जो टेबल है विभक्ति वाली उसमें ये के साथ का कोई कारक नहीं है
के साथ का नहीं है उसमें सह उपपद विभक्ति द्वारा सह लगेगा
अच्छा ओके 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 उसमें सह का कोई कारक मतलब पुत्र के साथ पिता के साथ या उसके साथ का कोई कारक नहीं है
वयं कथं
सह लगेगा
कर्ता ने
कर्म को कर्ण के द्वारा संप्रदान के लिए अपादान से अपादान से काके की में पर
इत्युक्ते करण के द्वारा वी डोंट से करण के द्वारा के साथ ओनली के उत्तमं अस्तु अग्रिमं वाक्यं पठतु पापा जी
हां सख्या वाला सा सख्या सह विद्यालयं गच्छति
इत्युक्ते
शी goes to vidyalaya with her friend.
Sakhya. Sakhya kidrisha padam. Sudha bhagini ekavaram sarvani rupani vadatu.
Aam bhagini. Dirgha. Sakhi. Hrishvaikara.
कीदृशपदम् एकवारं पश्यतु सखी
दीर्घ ईकारान्त अस्ति सखी सखी सख्यौ सख्यः हे सखी हे सख्यौ हे सख्यः सखीं सख्यौ सखीः सख्या सखीभ्यां सखीभिः सख्यै सखीभ्यां सखीभ्यः सख्याः सखीभ्यां सखीभ्यः सख्याः सख्योः सखीनां सख्यां सख्योः सखीषु
अग्रिमं पठतु
रामः उदाहरणं दृष्ट्वा तादृशवाक्यानि लिखतु उदाहरण देख कर ऐसे ही वाक्यानि लिखतु
एकं पदं कीदृश अस्ति
लिखतु इति प्रथमपुरुष एकवचन लोट् अस्ति लिक् लिक् धातुतः आयाति लिखतु तादृशवाक्यानि इति सकर्मकक्रियापदम् अस्ति लिखतु तादृशवाक्यानि अस्ति नपुंसकलिङ्ग द्वितीयाविभक्ति बहुवचनकर्मपदं दृष्ट्वा इति त्वान्तपदम् अस्ति उदाहरणं अपि कर्मपदम् अस्ति त्वान्तपदं कर्मपदं स्वीकरोति इति कारणेन उदाहरणम् इति कर्मपदं भवति लिखतु भवान् भवती लिखतु इति प्रथमपुरुष कर्तृपदम् अस्ति प्रथमविभक्ति एकवचनकर्तृपदम्
उत्तमम् उत्तमम् अधुना कति क्रियापदानि सन्ति वाक्ये
द्वे क्रियापदानि एकमेव अस्ति
एकमेव एकमेव तत् किं
लिखतु
लिखतु एकमेव क्रियापदम् अस्ति किन्तु कर्मपदं तु कति सन्ति
द्वे अस्ति द्वे स्तः
अस्तु इत्युक्ते ऊहां कुर्मः वयम् ओ लिख् दातु द्विकर्मक वा इति सम्यक् वा
न त्वान्तपदं कर्मपदं स्वीकरोति इति वयं जानीमः इति कारणेन उदाहरणं लिखतु इति द्विकर्मक नास्ति
उत्तमं तदेव लिखतु तु द्विकर्मक नास्ति लिखतु एकमेव कर्मपदं स्वीकरोति तत् किं तादृशवाक्यानि लिखतु अधुना उदाहरणमपि एकं कर्मपदमस्ति किमर्थम् अस्ति वाक्ये दृष्ट्वा त्वान्तपदं त्वान्तपदं सर्वदा कर्मपदं स्वीकरोति एव त्वान्तपदं कर्मपदं स्वीकरोति. प्रथमकर्मपदं स्वान्तपदस्य कारणेन अस्ति. द्वितीयकर्मपदं लिखतु इति पदस्य कारणेन अस्ति. अवगतं सर्वे?
आं भगिनि.
उत्तमं.
7:30 भगिनि.
ओ अस्तु अस्तु अस्तु, समय जातः. अस्तु, गृहपाठरूपेण किञ्चित् इति अभ्यासं करोतु. एकवचन द्विवचनरूपेण कथं वदनीयम् इति किञ्चित् करोतु कृपया. अस्तु, हा पापाजी, अन्तिमशान्तिपाठ वदतु.
पूर्णमगः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. हरिः ॐ. श्रीगुरुभ्यो नमः. हरिः ॐ.
सर्वं श्रीकृष्णो परमस्तु. श्रीगुरुभ्यो नमः. ॐ शान्ति शान्ति
शान्ति.
उत्तमं. सर्वेभ्यः नमो नमः. धन्यवादः.
सर्वेभ्यः नमो नमः. धन्यवादः.
नमस्कारः पापाजी. प्रणाम सर्वेभ्यः.
सर्वेभ्यः नमस्कारः.
नमस्कारः
भगिनी. आज वैशाख वद आठम है.
वैशाख लग गया ना?
हाँ, मतलब वद कृष्ण पक्ष. वी आर मूविंग टुवर्ड्स अमावस्या.
इस बार की पूर्णिमा इतनी विशाल थी, बहुत बड़ी थी.
सॉरी भगिनी.
पूर्णिमा बहुत बड़ी पूर्णिमा थी.
एक्लिप्स भी था ना?
एक्लिप्स तो नहीं दिखा हम लोग को यहाँ से. आप लोग को दिखा?
पता नहीं, देखा नहीं. भगिनी, इफ यू वांट टू स्टॉप द रिकॉर्डिंग.